एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री सुशीला कार्की स्वास्थ्य सुरक्षणस्य विषये दृष्टः समस्याः स्रोतसाम व्यवस्थापनेन सम्बोधयिष्यन्ते इति प्रतिबद्धताम् व्यनक्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्यः स्वास्थ्य सुरक्षण समितेः वर्तमानावस्थया भाविना मार्गचित्रेण च सम्बद्धेष् विषयेष् सम्भूते विमर्शने प्रधानमन्त्री कार्की एकद्वार प्रणालीं निर्माय लक्षितवर्गाणां कृते अपेक्षितं सौविध्यं सुनिश्चित सेतुं प्रभावपूर्णाय नियमनाय स्रोतसां व्यवस्थापनाय च सर्वकारः प्रतिबद्धोऽस्तीति समस्पष्टयत्। प्रधानमन्त्री कार्की स्वास्थ्य सुरक्षण सौविध्ये विपन्नेभ्यः असहायेभ्यः वृद्ध वृद्धाभ्यश्च प्राथमिकतां प्रदातुं सौविध्यस्य दुरूपयोगम् अवरोद्धुं च नीतिगत सुधारस्य आवश्यकता अस्ति इति उक्तवती। स्वास्थ्य जनसंख्या मन्त्री डा सुधा गौतमः स्वास्थ्य सुरक्षण समित्या स्रोतसाम सुनिश्चितताम् विनैव नागरिकेभ्य असीमित रूपेण सौविध्य प्रदानेन राष्ट्रे अधिकः आर्थिक भारः समापतितः इति अभाषत। कार्यक्रमे राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य कार्यवाहकाध्यक्षः जुद्धबहादुर गुरूङ, राष्ट्रिय योजना आयोगस्य उपाध्यक्षः डा प्रकाश कुमार श्रेष्ठः, अर्थ मन्त्रालयस्य सचिवः घनश्याम उपाध्यायश्च स्वास्थ्य सुरक्षण सेवायाः दुरावृत्य लाभस्य प्राप्तेः व्यवस्था रोधव्या इति उक्तवन्तः। स्वास्थ्य सुरक्षण समितेः कार्यकारी निर्देशकः डा कृष्ण प्रसाद पौडेलः वर्तमानार्थिक वर्षस्य कृते 26 अब्जानि 52 कोटयश्च रूप्यकाणि दातुम् अवशिष्टानि सन्ति इति प्रावोचत्। राष्ट्रपतिः रामचन्द्र पौडेलः जापान देशस्य औपचारिकं भ्रमणं प्रपूर्य ह्यः स्वदेशं प्रत्यावर्तितोऽस्ति। प्रत्यागमनस्य समये त्रिभुवनान्ताराष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधानमन्त्री सुशीला कार्की, मन्त्रिणः, सुरक्षा निकायानां प्रमुखाश्च राष्ट्रपतये पौडेलाय स्वागताभिवादनं विहितवन्तः। तदवसरे नेपाली सेनया राष्ट्रपतेः सम्माने अभिवादनम् अर्पितमासीत्। जापानदेशस्य निमन्त्रणायां राष्ट्रपतिः पौडेलः नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय नेपाल जापान देशयोर्मध्ये कौटनीतिक सम्बन्ध स्थापनायाः 70वां वर्षस्य अवसरे जापान देशे आयोजिते विशेष समारोहे भागं ग्रहीतुं गत रविवासरस्य रात्रौ तत्र प्रस्थितवान् आसीत्। नेपाल जापान देशयोर्मध्ये 50-59 ख्रीष्ट वर्षस्य सेप्टेम्बर मासस्य प्रथमे दिवसे कौटनीतिक सम्बन्धः स्थापितः आसीत्। उपराष्ट्रपतिः रामसाय प्रसाद यादवः आगामि निर्वाचनं लोकतान्त्रिकाभ्यासं सुदृढं विधातुं महत्वपूर्ण अवसरो वर्तते इत्युक्तवान् अस्ति। आदिवासी जनजात्यायोगस्य पञ्चमं वार्षिकोत्सवं ह्यः काष्ठमण्डपे सम्बोधयन् उपराष्ट्रपतिः यादवः निर्वाचनं नागरिकाणाम् अधिकाराणाम् अभिव्यक्तिर्माध्यमम् अस्ति इति प्रावोचत्। उपराष्ट्रपतिः यादवः निर्वाचनस्य माध्यमेन जनतायै स्वकीयं मताधिकारं प्रयुज्य राज्यस्य नीतिगतां दिशां निश्चेतुम् अवसरो प्रदीयते, अतः सर्वैः नागरिकैः अवसरोऽयं प्रयोक्तव्यः इत्यत्र बलं प्रादात्। कार्यक्रमे आदिवासी जनजात्यायोगस्य अध्यक्षः रामबहादुर थापा मगरः कार्यप्रगतिं प्रस्तुत्य साम्प्रतमपि नेपाली आदिवासी जनजातीनां राज्यस्य निकायेष् सहभागिता दुर्बला अस्ति इति उक्तवान् आसीत्। कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी निगदति आगामिनः फाल्गुन मासस्य 21 दिवसे सम्पत्स्यमाने प्रतिनिधिसभा सदस्यानां निर्वाचने प्रविधेः सम्भावितं दुरूपयोगं रोद्धुं योजनाबद्धरूपेण कार्यं जायमानमस्ति। निर्वाचन आयोगेन टिकटक इति सामाजिक सञ्जालस्य प्रतिनिधिभिस्सह ह्य विहितस्य संविदापत्रस्य आदान प्रदान कार्यक्रमं सम्बोधयन् कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी निर्वाचनस्य पक्षे सम्भूतं वातावरणं रक्षितुम् ऐतिहासिकी संविदा सम्भूता अस्ति इति प्रावोचत्। टिकटक इति सामाजिक सञ्जालेन सह संविदायाः पश्चात् एतस्याः माध्यमेन आचार संहितायाः उल्लंघनं मिथ्या सूचनायाः प्रसारणं रोद्धुञ्च सहयोगो भविष्यति इति विश्वासः व्यक्तोऽस्ति इति कार्यवाहक प्रमुखायुक्तः भण्डारी अवदत्। अर्थमन्त्री रामेश्वर खनालः श्रोत साम अभावेन निर्वाचने कथं विधोऽपि अवरोधो न स्रक्ष्यते इति समस्पष्टयति। म्याग्दी जनपदस्य बेनी स्थाने ह्य निर्वाचनस्य पूर्व कार्याणां विषये जनपदस्य अवस्थायाः वस्तुस्थितेः ग्रहणस्य क्रमे च अर्थमन्त्री खनालः निर्वाचनाय सर्वकारेण आर्थिक स्रोतसां व्यवस्था विहितास्तीत्यतः निर्भयेन निर्वाचनस्य पूर्व कार्येभ्य नैरन्तर्यं प्रदातुम् अन्योरुणत्। जलवायोः कारणेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे कुत्रचिदपि स्थानेषु मतदाने समस्यायां दृष्टायां सत्यां तस्य निर्णयः निर्वाचनायोगेन तत्कालं विधीयते इति भाषमाणः मन्त्री खनालः निर्वाचनस्य दिनांके सर्वकारेण कथं विधापि संविधान न करिष्यते इति समस्पष्टयत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री अनिल कुमार सिन्हा नेपाली भाषा संस्कृतिनाम महत्वम् अतुलनीयमस्तीत्यतः विधौ प्रयुक्तेषु शब्देषु अपि कला संस्कृतेः प्रतिबिम्बनस्य आवश्यकतायां बलं ददाति। राष्ट्रियसभान्तर्गताया विधायन समितेः ह्य उपवेशे अभौतिक सांस्कृतिक सम्पत् संरक्षण विधेयकमाधृत्य विहिते विमर्शने संस्कृति मन्त्री सिन्हा समाजस्य कला संस्कृतिः एवं शब्दानां महिमा संरक्षणीय इति बलं दत्तवान्। प्रधानमन्त्रिणा सुशीला कार्किणा सह नेपालस्य कृते श्रीलंकादेशस्य नवनियुक्तेन राजदूतेन रुआन्थी डेल्पिटिया इत्यनया शिष्टाचार मेलवार्ता विहिता अस्ति। सिंहप्रासादवर्तिने प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य सम्भूतायां मेलवार्तायाम् अनयोर्मध्ये द्विपक्षीयस्य हितस्य विविधेषु विषयेषु विमर्शनं सम्भूतमस्तीति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। तदवसरे प्रधानमन्त्री कार्की नवनियुक्ताय राजदूताय वर्धापनं प्रयच्छन्ति कार्यकालस्य सफलतायै शुभकामनां दत्तवती। गृहमन्त्रिणा ओमप्रकाश अर्यालेण सह संयुक्त राष्ट्रसंघीय मादकौषधापराध नियन्त्रण कार्यालयस्य दक्षिण एशिया क्षेत्रीय प्रतिनिधिना क्रिश्चियन होज इत्यनेन मेलवार्ता विहिता अस्ति। गृहमन्त्रालय सम्भूते एतयोर्मेलने मन्त्री अर्याल कार्यालयेन अनेन मादकौषध नियन्त्रणादिषु क्षेत्रेषु नेपालाय प्राप्यमाणं सहयोगं प्रति धन्यवादं प्रदाय संयुक्त राष्ट्रसंघीय मादकौषधापराध नियन्त्रण कार्यालयेन सह सहकार्यम् अतिरिक्तं वर्धयितुं शक्यते इति उदैरयत्। झापा जनपदस्य दमकस्थाने ट्रिपर यानस्य प्रहारेण मोटरसाइकल याने आरूढयोः द्वयोः जनयोः मृत्युः सम्भूतोऽस्ति। दुर्घटनायाम् इलाम जनपदस्य चुलाचुली ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य द्वाविंशति वर्षीयः प्रवेश राई एकोनविंशति वर्षीयः जनम राई च मृतौ इति झापा जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। त्रिभुवनन्तर राष्ट्रिय विमानस्थलात् नेपाल प्रहरिणा सुवर्ण पदार्थेण सह जनद्वयं निगृहीतं वर्तते। फ्लाई दुबई इति विमानेन ह्य काष्ठमण्डपं प्राप्तौ भारतीयौ द्वौ नागरिकौ शतग्राम सुवर्ण पदार्थेन सह त्रिभुवनन्तर राष्ट्रिय विमानस्थलात् निगृहीतौ स्तः इति विमानस्थल सुरक्षा कार्यालयस्य प्रवक्ता प्रहरी उपरीक्षक राजकुमार सिलवाल असूचयत्।